हरिः ओम् नमामि दूतं रामस्य सुकृतं च सुरद्रुमं पीनवृत्तमहाबाहुं सर्वशत्रुनिवारणम् नानारत्नसमायुक्तकुण्डलादिविराजितं सर्वदाभीष्टदातारं सदां वै दृढमाहवे वासिनं चक्रतीर्थस्य दक्षिणस्थगिरौ सदा तुङ्गाम्बोधितरङ्गस्य वातेन परिशोभिते नानादेशगतैः सेव्यमानं नृपोत्तमैः धूपदीपादिनैवेद्यः पञ्चखाद्यैश्च शक्तितः भजामि श्रीहनुमन्तं हेमकान्तिस्समप्रभुं व्यासतीर्थयतीन्द्रेण पूजितं च विधातः त्रिवारं यः पठे नित्यं स्तोत्रं भक्त्या द्विजोत्तमः वाञ्छितं लभते भीष्टं षण्मासाभ्यन्तरे खलु पुत्रार्थिर्लभते पुत्रं यशोऽर्थिर्लभते यशः विद्यार्थिर्लभते विद्यां धनार्थिर्लभते धनम् सर्वदा मास्तु सन्देहो हरिः साक्षी जगत्पतिः यः करोत्यत्र सन्देहं स याति नरकं ध्रुवम् इति श्रीव्यासराजविरचितं यन्त्रोद्धारकहनुमस्तोत्रं सम्पूर्णं श्रीकृष्णार्पणमस्तु।